अथ सप्तषष्टितमः सर्गः। एवमुक्तस्तु हनुमान् राघवेण महात्मना सीताया भाषितं सर्वं निवेदयत राघवे। एवमुक्तस्तु हनुमान् राघवेण महात्मना सीताया भाषितं सर्वं निवेदयत राघवे। इदमुक्तवती देवी जानकी पुरुरर्षभा पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथं सुखसुप्त्वा त्वया सार्धं जानकी पूर्वमुत्थिता वायसहसोत्पत्त्या विदुदारस्तनान्तरे पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रजा। पुनश्च किल पक्षी सा देव्या जनयति व्यथा पुनः पुनरुपागम्या विरराधभृशं किल। ततस्त्वं बोधितस्तस्या सोणितेन समुक्षितः वायसेन च तेनैव सततं बाध्यमानया बोधितः किल देव्या त्वं सुखसुप्त परन्तप। तां तु दृष्ट्वा महाबाहो दारिताञ्च स्तनान्तरे आसीविषयिव क्रुद्धो निःश्वस्य निःश्वसन्नभ्यभाषधाः नखाग्रैः केन ते भीरु दारितन्तुस्तनान्तरं कक्रीडति सरोषेण पञ्चवक्त्रेण भोगिना। निरीक्षमाणः सहसा वायसं समवैक्षथाः नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितं सुतः किल स चक्रस्य वायसः पदताम्बरः धरान्तरचरशीघ्रं पवनस्य गतौ समः। ततस्तस्मिन् महाबाहो कोपसंवर्धिते क्षणः वायसे त्वं कृधा क्रूरं मतिं मतिमताम्बरा स्वदर्भं संस्तराद्गृह्या ब्रह्मास्त्रेण ह्ययोजयः। सदीप्त इव कालाग्निः ज्ज्वालाभिमुखखदं क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति। ततस्तु वायसं दीप्तः सदर्भो अनुजगामः सपित्रा च परित्यक्तः सुरैश्च समहर्षिभिः त्रीन् लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति। पुनरेवागतस्तत्गतः त्रस्तः त्वत्सकाशमरिन्दमा सतं निपतितं भूमौ शरण्यस्य रणागतं वधार्हमपि काकुत्स्थ कृपया पर्यपालय। मोघमस्त्रं न शक्यन्तु कर्तुमित्येव राघव भवांस्तस्याक्षिकाकस्या हिनस्ति स्म सदक्षिणं रामत्वां स नमस्कृत्य राज्ञे दशरथाय च विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्। एवमस्त्रविदां श्रेष्ठा सत्त्वानां शीलवानपि किमर्थम् अस्त्रं रक्षसु न योजयति राघव। न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः न च सर्वे रणे शक्ता रामं प्रति समासितुम्। तस्य वीर्यवतः कश्चित् यद्यस्ति मयि सम्भ्रमः क्षिप्रं सुनिश्चितैर्बाणैः हन्यतां यदि रावणः। भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः स किमर्थं नरवरो न मां रक्षति राघवः। शक्तौतौ पुरुषव्याघ्रौ वायुवग्निसमतेजसौ सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः। ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः समर्थौ सहितौ यन्मां नावेक्षेते परन्तपौ। वैदेह्या वचन श्रुत्वा करुणं शास्त्रभाषितं पुनरप्यहमार्यां ताम् इदं वचनमब्रुवं त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे दुःखाविभूते तु लक्ष्मणः परितप्यते कथञ्चित् भवति दृष्टा न कालः परिशोचितुम्। अस्मिन् मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनी तावुभौ नरसार्दोलो राजपुत्रा वनिन्दितौ त्वद्दर्शनकृतोत्साहो लङ्कां भस्मीकरिष्यतः। हत्वा च समरे रौद्रं रावणं रासहबान्धवं राघवस्तां रारोहे स्वां पुरीं नयते ध्रुवं। यत्तु रामो विजानीयाद्विज्ञानमनिन्दिते प्रीतिसञ्जननं दस्या प्रदातुं त्वं ह्यार्हसि। साभिवीक्षति च सर्वा वेण्युद्गधनमुत्तमं मुक्त्वा वस्त्राद्दो मह्यं मणिमेतं महाबल। प्रतिगृह्य मणिं दिव्यं तव हेतो रघुद्वः शिरसा तां प्रणम्यार्याम् अहम् आगमने त्वरे गमने च कृतोत्साहम् अवेक्षवरवर्णिनि विवर्धमानं च हिमाम् उवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता। हनुमन्सिंहसंकाशौ उभौतो रामलक्ष्मणौ सुग्रीवंच महा सहामात्यं सर्वान् ब्रूयाह्यनामयं यथा च स महाबाहुर् मां तारयति राघवः अस्मात् दुःखाम्ब संरोधात् त्वं समाधातुमर्हसि इमञ्च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभत्सनञ्च ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ध्वास्तु हरिप्रवीर एतत्तवार्या नृपराजसिंहः सीतावच प्राह विषादपूर्वम् एतच्च बुद्ध्वा गयितं मया त्वं श्रद्धस्व सीतां कुशलां समग्राम् एतत्तवार्या नृपराजसिंहः सीतावच प्राज्ञ विषादपूर्वम् एतच्च बुद्ध्वा गयितं मया त्वं श्रद्धस्व सीतां कुशलां समग्राम् इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे सप्तषष्टितमः सर्गः आपदामवहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहं धर्मात्मा सत्यसन्धश्च रामो दासरिर्यदि पौरुषे च प्रद्वन्द्वस्यरेणञ्जहि रावणिं श्रीरघुनन्दन परब्रह्मणे नमः। Hanuman explained about the whole story of Kakasura. After giving this money to me, she explained the story of that Kakasura, what exactly had happened in Chitrakuta when you were in Mount Chitrakuta. Then she slept for a while and you slept for a while, and then the crow came in between and never you cared, and then the crow hurt her, and then she was just bleeding, and then you woke up and you saw the crow, you throw the grass blade chanting the Brahmastra, and the crow did not find any protection from anywhere across the world. And ultimately it returned to you and fell at your feet, except by your compassion, you know. Nothing was there and it was protected by you. But you said that, you know, the Brahmastra will not be left unanswered. So, let one eye go. So thus you removed one eye of that Kaka. And then Kaka was very grateful to you and saying that, who is there greater than Sita? And who is there greater than Rama? In Sanskrit, to say that it is Ka, Kaha, Ka, Kaha. So that's how its name became Kaka. Since then on, their voice turned like that. Wherever and whenever it goes, it says, ka 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 ka. Who is greater than Sita? Who is greater than Sita? Yeah. That's how, out of gratitude, they did namaskaram to you and they left for their own places. I know you are very great in shooting arrows and also in using weapons. No one is able to stand in front of you. Then why you are neglecting me when I am suffering here? And what about Lakshmana? What is doing? Equally capable. So even though both are capable, but you are neglecting me, so I am suffering here. Is it right, Rama, on your part? I agree that I am mistaken. And I committed big mistakes and small mistakes. Please, save me from this misery. That's what she said. Rama started crying, you know, by hearing these words. And somehow I consoled her, Sita. Because I also explained about your state, as how you are not eating, not drinking, not sleeping, and how you are spending the time, the sleepless situations to see her, and all that is what I explained to her. And also I assured her Rama along with Lakshmana and Sugriva and other Vanaras certainly going to come and see that whatever just you wanted, the whole Lanka should be smashed. They will do that. And after killing Ravana along with his all relatives, and Rama will take you to his place. This is how I said to Sita. Then I asked her to give some insignia. Then she just saw all corners so that nobody knows that she is giving that to you. Then she removed her hair and she was just keeping that hiding. And she removed that and just gave this money to hand it over to you. And see, taking this with all interest, yes, I came. And Sita actually was not interested in sending me from there. But somehow I convinced her, and then she said, let all your ways be auspicious and convey my pranams to Sugriva, Angada, Jambavan and all others, including Rama and Lakshmana. That is how I consoled her, I gave her assurance, and Rama, I came now to you. This is what it is, he said.